गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अव त्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानुचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वं आनन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाय द्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं तत्तो जायते सर्वं जगदिदं त्वत्तिष्ठति सर्वं जगदिदं त्वैलेमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो नीलो नभ त्वं चत्वारि वाक्पदानि त्वं गुणत्रयायतीतः त्वं देहत्रयायतीतः त्वं कालत्रयायतीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मक त्वां योगिनो ध्यायन्ति नित्यं त्वं ब्रह्मास्त्वं विष्णु त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरो गणादिं पूर्वमुच्चार्य वर्णादिं तदन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितं तारेण दिधम् एतत्त्वमनुस्वरूपं गकारः पूर्वरूपम् अकारो मध्यं रूपम् अनुस्वारशान्तरूपम् बिन्दुरुत्तरूपं नादः सन्धानं संहिता सन्धि सैषा गणेश विद्या गणकर्षि निषिद्ध गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् एकदन्तं चतुर्हस्तं पाशम् अङ्कुशधारिणं रदं च वरदं हस्ते बिभ्राणं मूषकध्वजं रक्तं लम्बोदरं शूर्पकर्णिकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैसुपूजितं भक्तानुकम्पिनं देवं जगत्कारणामच्युतम् आविर्भूतं च सृष्टियातौ प्रकृतये पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां वर नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते स्तु लंबोदराय एकदंताय विघ्ननाशिने शिवसुताय श्री वरद मूर्तये नमो नमः। ओम श्री गणेशाय